ओम नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। श्रीशुक उवाच। तेऽन्योन्यतो सुरा पात्रं हरन्तस्त्यक्तसौहृदाः क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम्। अहो रूपमहो धाम अहो अस्यानवं वयः इति ते तामभिद्रुत्य पप्रच्छुर्जातरिच्छयाः। का त्वं कञ्चपला साक्षी कुतो वा किं चिकीर्षसि कस्यासि वदवामोरुमथ्नन्तीव मनांसिनः। न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः। नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणां सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम्। सा त्वं न स्पर्धमानानामेकवस्तुनि मानिनि ज्ञातीनां बद्धवैराणां संविधत्स्वसु मध्यमे। वयं कश्यपदायादा भ्रातरः कृतपौरुषाः विभजस्व यथा न्यायं नैव भेदो यथा भवेत् इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत्। श्रीभगवानुवाच। कथं कश्यपदायादाः पुंसल्यां मयि सङ्गताः विश्वासम्पण्डितो जातु कामिनी शुनयातिः शालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः सख्यान्याहुरनित्यानि नूतनं नूतनं विचिन्वताम्। श्रीशुक उवाच। इति ते क्ष्वेलितैस्तस्याश्वस्तमनसोऽसुराः जहसुर्भावगम्भीरं ददुश्चामृतभाजनं ततो गृहीत्वा मृतभाजनं हरिर्बभाषयीषत्स्मितशोभया गिरा यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामि माम्। यद्यभिव्यारितं तस्याकर्ण्यासुरपुङ्गवाः अप्रमाणविदस्तस्यास्तत्तथेत्यन्वमंसत। अथोपोष्य कृतस्नाना हुत्वा च हविषानलं दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययनाद्विजैः यथोपजोसं वासांसि परिधाया हतानि ते कुशेषु प्राविशन् सर्वे प्राग्रेष्वभिभूषिताः। प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च धूपामोदितशालायां दुष्टायां माल्यदीपकैः तस्यां नरेन्द्रकरभोरुरुषद्दुकूलश्रोणितटालसगतिर्मदविह्वलाक्षी सा कूजति कनकनूपुरसिञ्जितेन कुम्भस्तनिकलशपाणिरथा विवेश। तां श्रीसखीं कनककुन्दलचारुकर्णनासाकपोलवदनां परदेवताख्यां संवीक्ष्य सम्मुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम्। असुराणां सुधादानं सर्पाणामिव दुर्नयम् मत्वा जातिनृशंसानां नतां व्यभजदच्युतः। कल्पयित्वा पृथक् पङ्क्तिरुभयेषां जगत्पतिः तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु दैत्यान् गृहीतकलशो वञ्चयन्नुपसञ्चरैः दूरस्थान् पाययामास जरामृत्युहरां सुधां ते पालयन्तः समयमसुराः स्वकृतं नृप तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया तस्यां कृतातिप्रणयाः प्रणयापायकातराः बहुमानेन चाबद्धा नोतुः किञ्चन विप्रियम्। देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देव संसदि प्रविष्टः सोममपि बच्चन्द्रार्काभ्यां च सूचितः चक्रेण क्षुरधारेण जहारपि पतशिरः हरिस्तस्य कबन्धस्तु सुधया प्लावितोपतत् शिरस्त्वमरतां नीतमजोग्रहमचीक्लृपत् यस्तु पर्वणि चन्द्रार्कावविधावति वैरधीः। पीतप्राये मृते देवैर्भगवान् लोकभावनः पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः। एवं सुरासुरगणा समदेशकाल हेत्वर्थकर्ममतयोऽपि फले विकल्पाः तत्रामृतं सुरगणा फलमञ्जसा पुर्यत्पादपङ्कजरजश्रयणान्न दैत्याः। यद्युज्यते सुवसुकर्म मनोवचोभिर्देहात्मजातिसुनृभिस्तदसत्पृथक्त्वात् तैरेव सद्भवति यत्क्रियते पृथक्त्वात् सर्वस्य तद्भवति मूलनिषेचनं यत्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामष्टमस्कन्धे मृतमथने नवमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।